स्वर्गाह्वोक्ति प्रखंडे सकल समयजित व्याख्ययाभात् पुराजौ शिष्याणामायुधानि प्रकटयति पुरा पूजितशूलिना भूत् प्रत्यक्षेण क्वचिद्यो दशशतगुरुरम्भापयो भुक्षणाद् सत् गानात् पुष्पादिकारीत्यभिहितचरितो यशुभैस्तं प्रपद्ये व्याख्यां श्रुत्वा मुनिभ्योऽभ्यदितसमयतो यस्य लभ्यं फणीन्द्रो वैकुण्ठं हेमनामा मणिमयसदनं श्रीशधामास्तदोषम् सायुज्याद्याप्तसौख्यैरखिलविषयिभिः सुन्दरी भोगभाग्भिः ब्रह्माद्यैर्नाथदृग्भिर्विलसितमतुलं सोऽनुगृह्णातु नोऽलम् नानादुर्नीतिवादैर्विहितमुरुमदं मायि भूतासुरेन्द्रैः योऽयं वेदान्तिसिंहो व्यजयत कुरवं पुण्डरीकं च काण्डम् विश्वाश्चर्यप्रकारं प्रवचनमकरोत् छन्दसां यत्स्पृधान्यः तत्कुर्वन् हास्य आसीद्विजवरनिकरे श्याम तद्दासदासाः पद्माख्यं सिन्धुराजं प्रियजनपरमागस्कृतं प्राप्य भीतेः अन्यान् कुर्वाणमग्रे सपदि निजगृहे गोगणैर्मध्वपार्थः यो यद्धासोक्तिबाणैर्विदलितहृदया दुद्रुवर्माजिदैत्याः विश्वज्ञाख्यो हरिर्यो जगति विजयते सप्रदद्याज्जयन्नः श्रीकान्ताङ्घ्रिप्रसङ्गादधिकशुचितमो यान्यथागाङ्ग ओघो राज्ञा संवन्दिताङ्घ्रिः सकलगुणगणोपेतपादादिकान्तः सर्वेषां दर्शनीयो लिकुचकुलभवो वेदशास्त्रादिवेदी प्रापायुग्विक्रमार्यो यमखिलगुरुमानन्दतीर्थं प्रवन्दे।